अथ सप्तशतीन्यासः प्रथममध्यमोत्तरचरित्राणाम् ब्रह्मविष्णुरुद्रादिशयः श्रीमहाकाली महालक्ष्मी महासरस्वत्यो देवताः गायित्रिष्टिकरुष्टुभिश्छन्दांसि नन्दाशाकम्भरी भीमाशक्तयः रथरन्तिका दुर्गा भ्रामर्योर्बीजानि अग्निवायुसूर्यास्तत्त्वानि ऋग्वेदुः सामवेदाध्यानानि सकलकामनासिद्धये श्रीमहाकाली महालक्ष्मी महासरस्वती देवताप्रीत्यर्थे जपे विनियोगः ॐ खड्गिनी शूलिनी घोरा गदिनी चक्रिणी तथा शङ्खिनी चापिनी बाणभुषुण्डी परिघायुधा अङ्गुष्ठाभ्याम् नमः शूलेन पाहिनो देवि पाहि खड्गेन चाम्बिके घण्टास्वलेन नस्पाहि चापज्यादिस्वलेन च तर्जनेभ्याम् नमः प्राच्याम् रक्ष प्रतीच्याम् च चण्डिके रक्ष दक्षिणे ब्राह्मणेनात्मशूलस्य उत्तरस्याम् दथेश्वरि मध्यमाभ्याम् नमः सौम्यानि यानि रूपाणि त्रैलोक्ये विचरन्ति ते यानि चात्यर्थघोराणि तैरक्षास्मांस्तथा भुवम् अनामिकाभ्याम् नमः खड्गशूलगदादीनि यानि चास्त्राणि तेऽम्बिके करपल्लवसङ्गीनि तैरस्मान् रक्ष सर्वतः करिष्ठिकाभ्याम् नमः सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते भयेभ्यस्त्राजिनो देवि दुर्गे देवि नमोऽस्तु ते करतलकरपृष्ठाभ्याम् नमः खड्गिनी शूलिनी घोरा गदिनी चक्रिणी तथा शङ्खिनी चापिनी बाणभुषुण्डी परिघायुधा हृदयाय नमः शूलेन पाभिनो देवि पाभि खड्गेन चाम्बिके घण्टास्वरेण नः पाभि चापज्यादिस्वरेण च शिरसे स्वाहा प्राच्याम् रक्ष प्रतीच्याम् च चण्डिके रक्ष दक्षिणे ब्राह्मणेनात्मशूलस्य उत्तरस्याम् दथेश्वरि शिखादैव षट् सौम्यानि यानि रूपाणि त्रैलोक्ये विचरन्ति ते यानि चात्यर्थघोराणि तैरक्षास्मांस्तथा भुवम् कवचालघुम् खड्गशूलगदादीनि यानि चास्त्राणि तेऽम्बिके करपल्लवसङ्गीनि तैरस्मान् रक्ष सर्वतः नेत्रत्रयाय भौषट् सर्वस्वरूपे सर्वेशे सर्वशक्तिसमन्विते भयेभ्यस्त्राजिनो देवि दुर्गे देवि नमोऽस्तु ते अस्त्राय फट् भूर्भुवस्वरोमिति दिग्बन्धः ध्यानम् विद्युद्धामसमप्रभाम् मृगपतिस्कन्धस्थिताम् भीषणाम् कन्याभिः करवालखेटविलसद्धस्ताभिरासेविताम् हस्तैश्चक्रगदासिखेटविशिखांश्चापम् गुणम् तर्जनीम् बिभ्राणामनलात्मिकाम् शशिधराम् दुर्गाम् त्रिनेत्राम् भजे लम् पृथिव्यात्मने गन्धम् कल्पयामि हम् आकाशात्मने पुष्पम् कल्पयामि यम् वायुवात्मने धूपम् कल्पयामि रम् अग्न्यात्मने दीपम् कल्पयामि अमृतात्मने अमृतम् निवेदयामि संसर्वात्मने समस्तोपचारान् समर्पयामि।